संक्रुद्धद्विजराजकोप्यविरतं कुर्वन् द्विजैः सङ्गमम् वाणी पद्धति दूरगोपि सततं तत्साहचर्यं वहन् नश्रान्तं पशुदुर्लभोऽपि कलया पत्यौ पशूनामृतिम् श्रीकामाक्षि तव स्मितामृतरसस्यन्दो मयि स्पन्दताम् श्रीकामाक्षि महेश्वरे निरुपम प्रेमाङ्कुरप्रक्रमम् नित्यं यः प्रकटीकरोति सहजाम् उन्निद्रयन्माधुरीम् तत्तादृक्तव मन्दहासमहिमा मातकतौ मानितां तन्मूर्ध्ना सुरनिम्नगां च कलिकाम् इन्दोश्च तां निन्दति ये माधुर्यविहारमण्डपभुवः ये शैत्यमुद्राकराः ये वैशद्यदशाविशेषसुभगाः ते मन्दहासाङ्कुराः कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायत कुर्वतां वाणी गुम्फनडम्बरे च हृदये कीर्तिप्ररोहे च मे कामाक्ष्यां मृदुलस्मितां शुनिकरां दक्षान्तके वीक्षणे मन्दाक्षग्रहिला हिमद्युति मयूखाक्षेपदीक्षाङ्कुराः दाक्ष्यं पक्ष्मलयन्तु माक्षिकगुड द्राक्षाभवं वाक्षु मे सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः जात्या शीतलशीतलानि मधुराणि एतानि पूतानि ते गाङ्गानीव पयांसि देवि पटलानि अल्पस्मितज्योतिषां येनः पङ्कपरम्परां मलिनितां एकाम्रनाथप्रिये प्रज्ञानात्सुतरां मदीयदिषणां प्रक्षालयन्तु क्षणात्।